इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका वन्दना आदौ मुख्य वार्ताः प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां तमिलभाषीय कवेः सुब्रह्मण्य भारती इत्येतस्य सम्पूर्ण कार्य संग्रहस्य विमोचनं कृतवान् प्रोदयितवान् यत् समृद्ध भारतस्य प्रत्येकजनस्य च सशक्तीकरणाय सुब्रह्मण्य भारती वर्यस्य दृष्टिः सर्वान् प्रेरयति संसदः द्वयोः सदनयोः पक्षस्य विपक्षस्य च सांसदानां मध्ये कोलाहल कारणेन राज्यसभायाः कार्यजातम् आदिवसं यावत् तत्रैव लोकसभायाः कार्यजातं द्विवादनं यावत् स्थगितम् अद्य दिल्ली नगरे ऋतुकालस्य शैत्यं प्रातः कालः समंकितः अपि च महिला क्रिकेट प्रतिस्पर्धायां आस्ट्रेलिया दलेन त्रिस्पर्धायां एकदिवसीय श्रृंखलायाः तृतीये अन्तिमे च द्वन्द्वे भारताय विजयाय 99.2 धावनानाङ्कं लक्ष्यः स्थापितः अथ वार्ताः विस्तरेण प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां तमिलभाषीय कवेः स्वाधीनता सेनानिनः च सुब्रह्मण्य भारती इत्येतस्य सम्पूर्ण कार्य संग्रहस्य विमोचनं कृतवान् अस्मिन् वसरे प्रधानमन्त्री सुब्रह्मण्य भारती इत्येतस्मै श्रद्धाञ्जलिं समर्प्य उक्तवान् यत् देशः अद्य महान् कवे जयन्तीम् आमानयति
आज देश महाकवि सुब्रह्मण्य भारती जी की जन्म जयंती मना रहा है। मैं सुब्रह्मण्य भारती जी को श्रद्धापूर्वक नमन करता हूं, उन्हें अपनी श्रद्धांजलि अर्पित करता हूं। भारत की संस्कृति और साहित्य के लिए, भारत के स्वतंत्रता संग्राम की स्मृतियों के लिए और तमिलनाडु के गौरव के लिए एक बहुत बड़ा अवसर है।
श्रीमोदिना कथितं यत् महाकवेः सुब्रह्मण्य भारती इत्येतस्य कार्यसंग्रहस्य विमोचनं कृत्वा असौ सम्मानस्य अनुभवं करोति प्रधानमन्त्रिणा प्रोदीरितं यत् समृद्ध भारतस्य प्रत्येकजनस्य च सशक्तीकरणाय सुब्रह्मण्य भारती वर्यस्य दृष्टिः सर्वान् प्रेरयति
सुब्रह्मण्य भारती जी ऐसे महान मनीषी थे जो देश की आवश्यकताओं को देखते हुए काम करते थे। उनका विजन उतना व्यापक था, उन्होंने हर उस दिशा में काम किया जिसकी जरूरत उस कालखंड में देश को थी। भारतीयार केवल तमिलनाडु और तमिल भाषा की ही धरोहर नहीं है, वो एक ऐसे विचारक थे जिनकी हर सांस मां भारती की सेवा के लिए समर्पित थी।
प्रधानमन्त्री नरेन्द्र मोदी अद्य गीता जयन्त्यवसरे जनेभ्यः शुभकामनाः प्रदत्तवान् सामाजिक संचार पटले एकस्मिन् सन्देशे श्रीमोदिना लिखितं यत् अयं पवित्र महोत्सवः भारतीय संस्कृतेः आध्यात्मिकतायाः परम्परायाः च मार्गदर्शनं कुर्वतः दिव्यशास्त्रस्य जन्मदिवसरूपेण आचर्यते प्रधानमन्त्री भगवतः श्रीकृष्णस्य स्मरणं कृत्वा आशां व्यक्तीकृतवान् यत् भगवद्गीता सर्वेभ्यः कर्मयोगस्य मार्गं प्रदर्शयिष्यति प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य अवधानं दत्तं यत् यथा यथा देशः महता परिमाणेन आंकिकीय रूपेण संयोजितो भवति तथा आन्तर्जालिक अपराधस्य भीतिः अपि निरन्तरं वर्धमाना अस्ति इति संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति संसदः द्वयोः सदनयोः पक्षस्य विपक्षस्य च सांसदानां मध्ये कोलाहल कारणेन राज्यसभायाः कार्यजातम् आदिवसं यावत् तत्रैव लोकसभायाः कार्यजातं द्विवादनं यावत् स्थगितम्। प्रथम स्थगनानन्तरं राज्यसभायाः कार्यजातं यदा मध्याह्ने द्वादशवादने पुनः प्रारब्धं तदा सदनस्य नेता केन्द्रीय मन्त्री च जगत् प्रकाश नड्डाः अमेरिका देशस्य जार्ज शोरोस फाउंडेशन इत्यनेन सह कांग्रेस नेतृणां कथित संबंधस्य विषये सदने चर्चां याचितवान्। इतः प्राक् यदा अद्य प्रातः सदनस्य कार्यजातं प्रारब्धं तदा अध्यक्षः जगदीप धनखड़ः विपक्षैः सांसदैः विभिन्न प्रकरणेषु प्रदत्त स्थगन प्रस्तावाः निराकृताः। संसदीय कार्यमंत्री किरेन रिजिजू राज्यसभायाः अध्यक्षं विरुध्य अविश्वासं प्रस्तावम् आलक्ष्य विपक्षस्य निन्दां कृतवान्।
भारतीय लोकतंत्र में 72 साल बाद एक ऐसा किसान का बेटा उपराष्ट्रपति के पद में पहुंच करके इस देश को सेवा करने का काम किया है। इस राज्यसभा सदन का सभापति के रूप में पूरा देश देख रहा है।
वित्त मंत्री निर्मला सीतारमण अद्य बलं प्रदत्तवती यत् वैश्विक शांति पुनः स्थापयितुं विश्वस्य प्रशासनैः उद्योगैः च मिलित्वा कार्यं कुर्युः। नवदिल्ल्यां CII इत्येतस्याः संस्थायाः वैश्विक आर्थिक नीति मञ्चस्य उद्घाटन सत्रे उपस्थित जनान् सम्बोधयन्ती वित्तमन्त्री उक्तवती यत् अस्मिन् दशके वैश्विक प्राथमिकता सामान्य स्थितेः पुनर्स्थापनं भवेत्। सा अवदत् यत् युद्धानि व्यवधानानि च परिहर्तव्यानि यतोहि एतानि आपूर्ति श्रृंखला व्यवधानानां मुख्यकरणानि सन्ति। सा उक्तवती यत् सामान्य स्थितेः पुनर्स्थापनस्य दायित्वं सर्वेषां उद्योगानां प्रशासनानां नीति निर्मातृणां नागरिकानां नागरिक मञ्चानां च वर्तते। वित्तमन्त्री बलं प्रदत्तवती यत् अर्थव्यवस्थायाः प्रौद्योगिक्याः वित्तस्य च संगमः वैश्विक प्रगते भविष्यम् आकारयति। बांग्लादेशे अस्मिन् वर्षे अगस्त मासस्य पञ्चदिनांकात् आरभ्य अक्टूबर मासस्य द्वाविंशति दिनांकं यावत् अल्पसंख्यकानां सम्बद्धानि आहत्य 88 प्रकरणानि पंजीकृतानि। ह्यः ढाकानगरे वार्ताहरान् संसूचयन् मुख्य परामर्श ददातु प्रचार माध्यम सम्बद्ध सचिवः शफिकुल आलमः उक्तवान् यत् एतेषु प्रकरणेषु 70 जनाः विष्टब्धाः। सुनामगंज नरसिंहणी चटोग्राम ढाका इत्येतेषु स्थलेषु अल्पसंख्यकेषु सद्यः एव भवितानां आक्रमणानां चर्चां कृत्वा तेनोक्तं यत् यदि एतेषु स्थलेषु नूतन घटनाः भवन्ति चेत् गृहीतानां प्रकरणानां च संख्या वर्धितुं शक्यते। अद्य दिल्लीनगरे ऋतुकालस्य शैत्यं प्रातःकाल समंकितः यत्र राष्ट्रिय राजधान्याः सफदर जंग स्थानके तापमानं 4.9 डिग्री सेल्सियस मित यावत् अभिलिखितम्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां विज्ञान भवने अस्य वर्षस्य राष्ट्रिय पंचायतन पुरस्कार प्रदत्तवती। अनेन पुरस्कारेण मूलस्तरे समावेशी सतत विकासं अग्रे वर्धयितुं पंचायती राज इति संस्थानं प्रयासेभ्यः मान्यता प्रदत्ता। महिला क्रिकेट प्रतिस्पर्धायां ऑस्ट्रेलिया दलेन त्रिस्पर्धायां एकदिवसीय श्रृंखलायाः तृतीये अन्तिमे च द्वन्द्वे भारताय विजयाय 99.2 धावनांकानां लक्ष्य स्थापितः इति वार्ताः।